नमस्सर्वेभ्यः। अद्य प्रौढमनोरमायाः अच्छन्दिप्रकरणे द्वादशः पाठः, मे मासस्य चतुर्विंशः दिनाङ्कः, येनाक्षरसमाम्नायमधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्। ध्यायं ध्यायं परं ब्रह्मस्मारं स्मारं गुरोर्गिरः, सिद्धान्तकौमुदी व्याख्यां कुर्मः प्रौढमनोरमाम्। अच्छन्दिप्रकरणस्य अन्तिमभागे स्मः। गतकक्षायाः किञ्चिदिव पुनरावर्तनं कृत्वा अग्रे सरामः। अक्षादुहिन्याम् उपसङ्ख्यानम् इति वार्तिकमधिकृत्य मनोरमायां लिख्यते, अक्षौहिणीति ऊहोऽस्ति अस्य ऊहिनी, अक्षाणाम् ऊहिनी इति विग्रहः। परिमाणविशेषविशिष्टासेन अक्षौहिणी पूर्वपदासंज्ञायाम् इति नत्वम्। यत्तु प्राचा विगृहीतम् अक्षाणाम् ऊहः समूहः सः अस्त्यस्याः इति, तदपि ऊहिनीशब्देन षष्ठी तत्पुरुषः इत्येवं परतयैव कथञ्चिन्नेयम्। ऊहशब्देन समासे तत इनौ तु वृद्धिर्न स्यात् अन्तरङ्गेण गुणेन भागात्। अपवादभूतायाः अपि वृद्धेः ऊहिनीशब्देन विग्रहे चरितार्थत्वात्, यथोक्तं प्राक् इन्निशीनाम् आद्गुणस्वर्णदीर्घत्वादिति। There's a single point he makes. What is the vigraha? How do we split the compound akshauhini? Akshanam uhini iti vigraha. Uhini shabdaha uha ityasmat innantaha. In iti tadhita prateha tataha shashti tatpurushaha. Purvaihi adau shashti tatpurushaha anantaram tadhita prateha uchyate tata sadhur na bhavati. Because the vritti is told only when the word Aksha is followed by Uhini. Akshad Uhinyam ityeva vritte uchyate. Uha shabde pare to Aksha Uha akara dukare pare guna eva syat vrittir na syat. Ataha Akshanam Uhini ityeva vigraha kartavyaha iti dikshitanam matam. Swadi redinohu iti agrimam vartikam. Ira irinyohu iti kvachit kaha apapathaha. ईर ईरिणोः इत्यस्ति ईर ईरिन् इति शब्दयोः परयोः वृद्धिर्भवति। ईर ईरिण्योः ईर ईरिणी इति क्वचित् कः अपपाठः। स्वैरी इति निन्यन्तस्य अस्त्रियां वृद्ध्यभावप्रसङ्गात्। ईरिण्योः इत्युक्ते ईरिणी स्त्रीलिङ्गे एव वृद्धिर्भवति, पुल्लिङ्गे वृद्धिर्न स्यात्, अतः सः पाठः न साधुः। स्वैरिणी इत्यत्र तु नीपः प्राग्भागमादाय वृद्धिर्बोध्या, यत्तु व्याचख्युः लिङ्गविशिष्टपरिभाषयेति तन्निष्फलम्। ईरिणी इत्यत्रापि ईरिन् इत्यस्ति, ततः नीप्रत्ययः, अतः ईरिन् शब्दे परे वृद्धिः इत्यनेनैव तत्रापि सिद्ध्यति। प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम् इति परिभाषा अत्र नापेक्षिता। अग्रिमं वार्तिकं प्रादुहोढोढ्येषैष्येषु। अत्र ऊहशब्दः कैश्चित् प्रक्षिप्तः, भाष्यादौ तु न दृश्यते इति प्रान्तः। इदानीन्तनपुस्तकेषु तु भाष्यवार्तिकयोः ऊहशब्दः दृश्यते एव। अर्थवद्ग्रहणे नानर्थकस्य ग्रहणम् इति परिभाषा उच्यते अस्यां परिभाषायां दीक्षितैः कौमुद्याम्। ऊढ इत्यस्ति प्रात् ऊह ऊढ इति, ऊढ इति क्तप्रत्ययान्तशब्दः, ऊढवान् इति क्तवतु प्रत्ययान्तोऽपि अस्ति। तत्र क्तप्रत्ययान्ते ऊढशब्दे परे वृद्धिर्भवति। क्तवतु प्रत्ययान्तेऽपि ऊढ इत्यस्ति, ऊढवान् इत्यस्य एकदेशः ऊढ इति, तस्मिन् परे वृद्धिर्भवति वा इति प्रश्नः, न भवति इति उत्तरम्। किमर्थं न भवति इति चेत् अर्थवद्ग्रहणे नानर्थकस्य ग्रहणम्, अर्थवतः ऊढशब्दस्य ग्रहणे अनर्थकस्य ऊढवान् इत्येकदेशस्य ऊढशब्दस्य ग्रहणं न भवति। बिकास् इफ् इट् इस् अ क्तप्रत्ययान्त द वर्ड् ऊढ इस् मीनिङ्ग्फुल्, इफ् इट् इस् क्तव तु इट् इस् ओन्ली ऊढवान् विच् केरीस् अ मीनिङ्ग्। द ओन्ली द धातु ऊढ हेज् अ मीनिङ्ग् एण्ड् द सारी ऊ इस् द ओन्ली पार्ट् फ्रम् द धातु, द ढवान् इस् आल् फ्रम् द प्रत्यय। So the prakriti and pratyaya are separately meaningful, but you take a bit of this and a bit of that, udha is does not carry any meaning. अतः अथवत् ग्रहणे नानर्थकस्य ग्रहणम् इति परिभाषया अत्र तवतु प्रत्ययान्ते परे वृद्धिर्न भवति इति सिद्धान्तः. सा परिभाषा कथं सिद्ध्यति इति प्रश्नः. हौ डु वि प्रूव् दट् द परिभाषा एक्सिस्ट्. तदर्थं वदति नानर्थकस्य इति उपस्थितस्य अर्थस्य शब्दं प्रति विशेषणत्वसम्भवे त्याग अयोगात् इति भावः. प्रश्नस्य कः आशयः? व्याकरणे शब्दस्यैव प्राधान्यं न तु अर्थस्य इत्यस्ति. स्वं रूपं शब्दस्य अशब्दसंज्ञा. अतः यत्र यत्र ऊढ इति शब्दः श्रूयते तत्र तत्र कार्यं भवतु. किम् अर्थेन इति प्रश्नः. उच्यते सत्यं शब्दः एव प्रधानः, किन्तु अर्थसहितः शब्दः एव प्रधानं व्याकरणे इति सिद्धान्तः, न तु अर्थरहितः. इट् इस् ट्रू दट् शब्द जस्ट् द वर्ड् इस् what is important, but it is not a word stripped of meaning. The meaning is not pradhana, but it still exists as a visheshana. Upasthitasya arthasya shabdam prati visheshanatva sambhave tyaga ayogat. So there is no need to give up meaning altogether. It is just among word and meaning, word is more important, not the meaning. So the meaning is still there. So it is only the meaningful word which is considered and not something which is meaningless. That is one pramana. There is also one more which is given as a jnapaka. It is an indicator of this paribhasha. What is it? Sira devastaha vrashcha vrashcha srija mrija yaja raja bhraja chasham shaha iti sutram. Vrashcha di sutre rajehe prathak bhraji grahanam iha jnapakam iti. Raj bhraj iti dhatu dvayam asti. Bhraj ityatrapi raj ityasti. यदि राजिग्रहणेनैव भ्राज् धातोरपि षत्वं सिद्ध्यति तर्हि भ्राजेः पृथक् ग्रहणं नापेक्ष्यते. पृथक् ग्रहणं कृतं पाणिनिना, तेन ज्ञायते अर्थवद्ग्रहणे न अनर्थकस्य ग्रहणम्. सीलदेवस्त्वाः वृश्चादिसूत्रे राजेः पृथक् राजिग्रहणमिह ज्ञापकमिति ननु एतदयुक्तम्. फणादिना राजिना सहचर्यात् तथाभूतस्यैव षत्वार्थतया राजिग्रहणस्य उपक्षीणत्वादिति चेत् विभ्राट् विभ्राट् इति रूपद्वयं हि साध्यम्. तच्च वश्चादिसूत्रे राज्र इति पठित्वापि सुसाधम्. एकस्य भ्राजते अधकारस्य प्रागपि दातुं शक्यत्वात् ऋभ्राज इति. भ्राजभाषा इति विकल्पस्य वासनिकतया ऋकारस्य आत्मनेपदमात्रफलकताया वक्ष्यमाणत्वेन तत्स्थाने अकारस्य सुपठत्वाच्च. तस्मात् सीलदेवोक्तं ज्ञापकमपि सम्यगेव. सो देयर इस् वन् ऑब्जेक्शन् रेस्ड् टु दिस् ज्ञापक. ज्ञापक विल् वर्क् ओन्ली वेन् that point, that is whatever is taken as a jnapaka, does not have any other purpose. Yada vyartham bhavati tadaiva jnapakam bhavitu marhati. Now what is Siradeva saying? If even an ekadesha, anarthaka can also be considered, then just by saying raj, the dhatu bhraj will also get shatva, and therefore prithak bhraji grahanam vyartham iti Siradeva vadati. तत्र उच्यते पृथक् भ्राजिग्रहणं न व्यर्थम्. किमर्थम्? भ्राज इति धातुद्वयमस्ति, भ्राजृदीप्तौ इति एकः, तु भ्राजृदीप्तौ इति अन्यः. एकः राजृधातुना सह फणादिगणे पठ्यते. फणादिः इति भ्रादौ अन्तर्गणः, तत्र एकः पठ्यते, अपरः अन्यत्र पठ्यते. राजिना साहचर्यात् फणादेरेव भ्राजेः ग्रहणार्थम्. So, taking bhraj along with raj is to make sure that only that bhraj dhatu, that which is told in the dhatu patha along with raj is considered and the other one is not considered. So, because of that, there will be two forms. If this sutra operates, that is for the bhraj dhatu which is a phanadi, the shatva will operate and the form will be vibhrat. Whereas for the other bhraj dhatu, the form will be vibhrak. So, this is the purpose of taking bhraj separately and not to indicate the paribhasha arthavad grahane arthakasya grahanam is the argument. So Dikshitar says that does not make sense. If that was the purpose of Panini, he could have achieved the purpose easily by making a minor change in the dhatu patha itself. When giving dhatus in the dhatu patha, he could have given one as bhrajru, as it is rajru and bhrajru. So both of them will be taken together. The other bhraj dhatu could, instead of giving it as bhrajra, he could have given it as rubhraja. That is, the rukara is moved to the beginning. It doesn't make a difference because it is anyway an anubandha, is going to be deleted. So mudarakara to the beginning, so that it is not taken as bhrajru. That is one solution. Or the rukara itself is not needed, so it can be given as bhraja. Only akara as anubandha, because it is required only for the atmanepada. So by just tweaking the dhatu bandha, Panini could have achieved this purpose. He did not do it, which means that the paribhasha exists. Arthavad grahane nanarthakasya grahanam. Tasmat siradeva uktam jnapakam api samyageva. Praishyeti. Pradho hodo dheshaishyeshu. Itasti tatra eshya. Esha sahachavyad eshyopi anavyayam grahyate. Tena nyanta dishehe ktvolyapi pararupameva natu vruddhihi. So it is not a avyaya, it is asya iti namapadameva grihyate, an avyayam tu na grihyate. Preshyagataha iti daharanam pravatsatara kambala vasana dasharnanam rane atra kalapanusarinaha vatsara shabdam api patitva vatsare deyam ranam vatsararanam iti daharanti aparetu vatsa shabdam api patanti tatsarvam bhashyadi viduttham. Vartike vatsatara iti ekaeva shabdah asti, vatsa shabdopi nasti, vatsara shabdopi nasti, iti dikshitanam. Antadi vaccha. Iha ekah purva parayoho ityana vartate, yatha sankhyanta. Purvasya antavat, parasya adivat. Bhavati yoyam ekadesha, saha purvasya antavat, parasya adivat bhavati, iti sutrartha. Sthanivat sutrena eva gatarthamidam sutram. Sthanivaradesho analvitho vidyanena eva bhavati. Nata alvidhyarthamidamiti bhramitavyam, asyapi alvitho anishtatvat. Anyatha ayade indramityatva savarnadirthapattehe. Taha sthanivaradesho analvitho viti uchyate, ayamapi antadivadvavopi analvithaveva natu alvitho. Ataha prathak sutrakaranam napekshitam. Tathacha vartikam nama atadrupyati deshaditi. Navisargaiti. Etacha sukhartaha ityadavapi tulyam. Kutra sukha ruta ityasti. Tatra sukhartaha athava atrapi prarshabhiyati ityadishu. R iti vrutthihi kriyate. Idanim vrutthau krutayam tat padantam bhavati repaha. Repaha padante asti chet. Kharvasanayor visarjaniyaha ityanena visargaha prapnoti. Kinto antavadbhavena padanta repasya na visargaha iti. Ucchyate kimartham paninehe nirdeshaah santi ubhayatakshu ityadi nirdeshat antavadbhavena padantarepasya namisargah iti etatcha sukhartah ityanavapi tulyam atrata karyakalapakshe bahirangatvad asiddham api bodhyam visargah visargavidhayakam sutram tripadyam asti atah karyakalapakshe ashte visargah antarangah vruddhihi bahiranga bahirbhuta nimittakatvat ataha bahiranga vruddhihi asiddha ityapi vaktum shakyate tatha najanantarye iti nishedhah najanantarye bahishva prakrutihi iti asiddha paribhashayah nishedhah asti kinto atra na pravartate kimartham yatra antarange bahirange va achoranantaryam tatra iti haradatta pakshe tatraptavapi yatra paschat pramartavane ajanantaryam iti kayyatamate nishedha praptehe. So there are two ways of interpreting that paribhasha, najanantarye. So according to haradatta, when either of the karya, when either antaranga or bahiranga has achoho anantarya, that is, it depends on two ach letters being next to each other. All the swara sandhis, say yan sandhi, vruddhi, savarna dirgha, they all are achoho anantaryam. They depend on two vowels being next to each other. So yatra antarange bahirangeva achora anantaryam tatra iti haradatta pakshe tat prapta vapi. So if we take according to haradatta, there will be nishedha here, but according to kayyata, paschat pravartamane ajanantaryam, that which applies later, which is the visarga in this case. The visarga karya does not depend on ajanantarya. Khari avasane. It occurs either at the avasana, when there is no other letter, or when there is a khar letter. So it does not depend on ajanantarya. Therefore, najanantarya iti nishedha na pravartate. Bahvapekshatvena bahirangayam vruddhau ajanantarya sattveti paschastravartamane nama kharvasanayo visarjaniyaha ityatra tadabhavat. Upasargeneti. Yatkriya yukta padayaha tam pratyeva gatyupasarga samyaha. प्राश्यभीयति शरोति इति द्वित्वनिषेधः प्रेजते इति एजृदीप्तौ कम्पनार्थस्तु परस्मैपदी सो प्र एजते इत्यत्र एज धातुः दीप्त्यर्थकः न तु कम्पनार्थकः यतोहि कम्पनार्थस्य परस्मैपदित्वमेव अस्ति एजते कम्पते इति तु प्राचां व्याख्यानं प्रामादिकमेव एङि इत्येव सिद्धे एङि पररूपम् इत्युच्यते एङि एङ् इत्येव वक्तुं शक्यमासीत् लाघवमस्ति तथापि परग्रहणम् उत्तरार्थम् अग्रेपि पररूपं पररूपं पररूपम् इत्यनुवर्तते अतः अत्रापि पररूपम् इत्येव उक्तम् रूपग्रहणं तु चिन्त्यप्रयोजनम् एङि परः इत्येव सिद्धेः यथा अमिपूर्वः इति पररूपम् इति वक्तव्यं नास्ति परः इत्येव वक्तुं शक्यमासीत् इति दीक्षितानाम् आक्षेपः नियोगो अवधारणमिति एवेच अनियोगे इत्यस्ति एव इत्यस्य कः अर्थः अवधारणम् दट् इस् द असर्टेन्मेण्ट् आफ् सम्थिङ्ग् इस् अवधारणम् सो ओन्लि इन् दट् केस् वेन् इट् इस् नाट् इन् द सेन्स् आफ् सर्टेन्टि देन् वि हेव् गुण सोरि पररूप तव एव अक्व एव क्वेव भोक्ष्यसे इत्यादिषु नियोगः अवधारणमिति यत्वाहुः नावक्लुप्तौ यदा दृष्टः पररूपस्य गोचरः एवस्तु विषयो वृद्धेः नियमेयं यदा भवेत् यदा नियमे सो वेन् दिस् इस् इट् इति सर्टेनिटि यदा उच्यते तदा एवः वृद्धेः विषयः नावक्लुप्तौ यदा दृष्टः अनवक्लुप्तिः नाम अनिर्धारणम् तदा पररूपस्य गोचरः एतेन नियोजनं नियोगः व्यापारः इति व्याख्यानं परास्तम् नियोगः नाम व्यापारः न किन्तु अवधारणम् यदैव पूर्वं ज्वलने शरीरे ममैव जन्मान्तरपातकानाम् इत्यादि प्रयोगविरोधात् सो इफ् यु लुक् एट् आल् द प्रयोगस् द एव ममैव इस् ओन्लि मैन् इति नियमः दृश्यते एवमेव यदैव इत्यादिषु उदाहृतवृत्तिस्थश्लोकविरोधात् लङ्शाकटायनस्यैव तपस्तपःकर्मकस्यैव इत्यादि सौत्रप्रयोगविरोधाच्च सर्वत्र एवकारः यत्र वृद्धिः दृश्यते तत्र नियमरूपः अर्थः एव दृश्यते यत्तु श्लोकवार्तिकमिदमित्याहुः तत्र भसात् ऐ थिङ्क् वि स्टाप्ड् हियर् ओके एनी क्वेश्चन्स् from previous classes अग्रिमं सूत्रमस्ति शकन्धादिषु पररूपं वाच्यम् इति वार्तिकं पररूपविधायकं वार्तिकं शकन्धादिगणे ये शब्दाः पठिताः तेषां सिद्ध्यर्थं पररूपं वक्तव्यम् दट् इस् द गण आल्रेडि गिव्स् रेडिमेड् वर्ड्स् सो टु डिरैव् दोस् वर्ड्स् वि अप्लै पररूपम् इत्यर्थः शकन्धादिविषये तत्सिद्ध्यनुगुणं पररूपं वाच्यम् इत्यर्थः तत्सिद्ध्यनुगुणं सो in a way which should facilitate deriving those words we use pararupa tachatehe iti kaumudyam eva asti pararupam tehe bhavati t is achontyadi t so the last vowel of the previous word along with whatever is the following consonant is called t tehe pararupam bhavati atayevaha tachate iti यदि तु आत् इति अधिकारात् अकारस्यैव इष्यते तर्हि मनीषा इति न सिद्ध्येत् अत्र सर्वत्र आद् गुणः इति अधिकारः अस्ति अवर्णान्तात् इति अतः यदि अकारस्यैव इष्यते तेः इति किमर्थं वक्तव्यम् शक अन्धुः इत्यस्ति शक इति अन्ते अकारः अकारस्य पररूपम् इत्युक्ते शकन्धुः कर्कन्धुः इत्यादीनि रूपाणि सिद्ध्यन्ति यदि तु आत् इत्यधिकारात् अकारस्यैव इष्यते तर्हि मनीषा इति न सिद्ध्येत् मनस् ईशा इत्यस्ति तत्र केवलस्य अकारस्य पररूपं भवितुं नार्हति यतोहि अकारस्य सकारपरत्वमेव अस्ति न तु ईकारपरत्वम् तत्सिद्ध्यर्थं तेः इति उच्यते टी नाम अस् अस् इत्यस्य ईकारेण सह पररूपे मनीषा इति सिद्ध्यति केचित्तु मनःपतच्छब्दयोः ವೃಷೋದರಾದಿತ್ವಾತ್ ಅಂತ್ಯಲೋಪೆ ಅಕಾರಸ್ಯೈವ ಪರರೂಪಮಾಹುಃ. A few others derive these words. Manisha, Patanjali, Patan Anjali. Atra an iti tehe pararupam iti dikshitanamatam. Kechit vadanti manas patat ityatre asti tatra antyasya vyanjanasya prushodaraditva dante lope. Prushodaradini yathopadishtani asti. Words in the prushodaradigana are to be accepted as they are. So now this manas and patat, by belonging to the gana, the sakara and the takara at the end is dropped. So it becomes akaranta. Once it becomes akaranta, akarasyeva pararupam iti kesana vadanti. Nidanim tasmin gane ye shabdaha pathitaha, tesham arthavivaranam kurvanti dikshitaha. Shaka andhuhu shakandhuhu. Jasti, shakanam, desha visheshanam, andhuhu nama kupaha. ಶಕ ಇತಿ ಕಶ್ಚನ ದೇಶಃ ತತ್ರಸ್ಯಃ ಕೂಪಃ ಶಕಂಧುಃ. ಕರ್ಕಾಣಾಂ ಕರ್ಕಂಧುಃ ಇತಿ ಅಗ್ರಿಮಂ ಪದಂ. ಕರ್ಕ ಅಂಧು, ಕರ್ಕಾಣಾಂ ರಾಜ್ಯಾಂ ಅಂಧುಃ. ಕರ್ಕ ಇತಿ ಕೇಶಾಂಚನ ರಾಜ್ಯಾಂ ನಾಮ ತೇಷಾಂ ಅಂಧುಃ ನಾಮ ಕೂಪಃ ಕರ್ಕಂಧುಃ. ಕರ್ಕಂಧು ಇತಿ ಹ್ರಸ್ವಕಾರಾಂತಃ. ಬದರೀವಾಚೀತು ಕರ್ಕಂಧೂ ಶಬ್ದಃ ದೀರ್ಘಾಂತಃ. ಸೊ ದೇರ್ ಇಸ್ ಆಲ್ಸೋ ಎ ಕರ್ಕಂಧು which means badari, a certain berry. Dirghantaha, andhu drindhu ityadina unadishu vakshyate. So that is a unadi, that is a different, carries a different meaning. Karkandhu iti hrasvetu karkanam kupaha ityeva arthaha. Kulata ityasti, kula ata kulata kurthaha, atati iti ata pachatyati. Ya sarvada atati, sancharati sa ata. Kulasya ata, kulata, kulam kulam atati. She who keeps travelling between different kulas. Kulata is a name for a prostitute. Kulasya ata, kulata. Manisha, vikatham. Isha unche, isha datyadishu. There are two different dhatus. Abhyam, guroshcha halaha iti apratyaye, isha. Isha iti dhatu dvayamasti, tasmad apratyaye. ತತ್ ಸ್ತ್ರೀತ್ವಂ ಸ್ತ್ರೀಯಾಂಕ್ತಿ ನಿತ್ಯಧಿಕಾರೇ ಅಸ್ತಿ ಅತಃ ಈಶಾ ಮನಸಃ ಈಶಾ ಮನೀಷಾ ಇತಿ ವಿಗ್ರಹಃ. ಮನಸ್ ಈಶಾ ಇತಿ ಸ್ಥಿತೆ ತೇಹ ಪರರೂಪಂ ಮನೀಷಾ ಇತಿ ರೂಪಂ ಸಿದ್ಧ್ಯತಿ. ಹಲೀಶಾ ಹಲಸ್ಯ ಈಶಾ ಹಲೀಶಾ ಲಾಂಗಲ ದಂಡಃ ದ ದಂಡ ದ ಹ್ಯಾಂಡಲ್ ಆಫ್ ಅ ಫ್ಲೋ ಇಸ್ ಕಾಲ್ಡ್ ಹಲೀಶಾ. ಮೂರ್ಧನ್ಯೋಪಧಃ ಹಲೀಶಾ ಇತ್ಯತ್ರ ಉಪಧ ನಾಮ ಶಕಾರಃ ಮೂರ್ಧನ್ಯ ಶಕಾರಃ. ಯಸ್ತು ಈಶ ಇತಿ ತಾಳವ್ಯ ಶಕಾರಃ ಅಸ್ತಿ. ಪ್ರಭುಶಂಕರಯೋರೀಶಃ ಸ್ತ್ರೀಯಾಂ ಲಾಂಗಲದಂಡಕೆ ಇತಿ ರಭಸಕೋಶಾತ್ ತಾಳವ್ಯೋಪಧಃ ತಸ್ಮಿನ್ ಪರೆ ಆದ್ಗುಣಃ ಇತ್ಯೇವ ಭವತಿ ಹಲೇಶ. ಈಶಾ ಇತಿ ಯತ್ರ ಮೂರ್ಧನ್ಯೋಪಧಃ ತತ್ರೈವ ಪರರೂಪಂ ತತ್ರ ಹಲೀಶಾ ಇತಿ ಭವತಿ. ಈಶಾ ಇತಿ ತಾಳವ್ಯೋಪಧಃ ಅಪಿ ಅಸ್ತಿ. ಪ್ರಭುಶಂಕರಯೋಃ ಈಶಃ ಸ್ತ್ರೀಯಾಂ ಸ್ತ್ರೀಯಾಂ ಈಶಾ ಇತ್ಯಸ್ತಿ ಲಾಂಗಲದಂಡಕೆ. ತಸ್ಮಿನ್ನೇವ ಅರ್ಥೆ ತಾಳವ್ಯೋಪಧಃ ಅಪಿ ಶಬ್ದಃ ಅಸ್ತಿ ಕಿಂತು ತಸ್ಮಿನ್ ಪರೆ ಆದ್ಗುಣಃ ಇತ್ಯೇವ ಭವತಿ. ಬಿಕಾಸ್ ಓನ್ಲಿ ದ ಮೂರ್ಧನ್ಯೋಪಧ ಹ್ಯಾಸ್ ಬೀನ್ ಗಿವನ್ ಇನ್ ದ ಶಕಂಧ್ವಾದಿಗಣ ವೆನ್ ಫಾಲೋಡ್ ಬೈ ದ ಈಶ ವಿತ್ ತಾಳವ್ಯ ಶಕಾರ ಇಟ್ ವಿಲ್ ಬಿ ಆದ್ಗುಣ ಟು ಗಿವ್ ದ ಫಾರ್ಮ್ ಹಲೇಶ ಅಂಡ್ ನಾಟ್ ಹಲೀಶಾ. ಹಲೀಶಾ ಇತ್ಯತ್ರ ಮೂರ್ಧನ್ಯ ಶಕಾರಃ, ಹಲೇಶಾ ಇತ್ಯತ್ರ ತಾಳವ್ಯ ಶಕಾರಃ. ಅರ್ಥತ್ತು ಸಮಾನ. ಬೋತ್ ಆಫ್ ದೆಮ್ ಮೀನ್ ದ ಸೇಮ್, ಬಟ್ ಇನ್ ಒನ್ ಕೇಸ್ ದೇರ್ ಇಸ್ ಪರರೂಪ ಅಂಡ್ ಇನ್ ಅದರ್ ಕೇಸ್ ದೇರ್ ಇಸ್ ಗುಣ. ಪತಂಜಲಿಹಿ ಇತಿ ಶಬ್ದಃ ಅಪಿ ಶಕಂಧ್ವಾದಿಗಣೇ ಏವ ಅಸ್ತಿ. ಪತನ್ ಅಂಜಲಿಹಿ ಯಸ್ಮಿನ್ ನಮಸ್ಕಾರ್ಯತ್ವಾತ್ ಯಸ್ಮಿನ್ ಅಂಜಲಿಹಿ. ಅಂಜಲಿಹಿ ಇಸ್ ದ ಹ್ಯಾಂಡ್, ಯು ನೋ, the curved hand, palms are called as anjali. Patan anjalihi yasmin, yasmin anjalihi patati. Artha sarve namaskurvanti, namaskaryatvaditi patanjalihi. Patan anjali ityasti, tatrati iti an. An ityasya akarena saha pararupe patanjalihi iti rupam. Martandaha, martha andaha ityasti, kechidatta savarna dirgha mahuhu. मार्तांड इत्यस्य मार्तांडः इत्यपि अस्ति मार्तंडः इत्यपि अस्ति सूर्यः इत्यर्थः शब्दद्वयमपि साधु परामार्तांडमास्थत् पुनर्मार्तांडमाभरत् विश्वो मार्तांडो अवृजत् इत्यादि वैदिक प्रयोगाः तेषाम् अनुकूलाः वेदे मार्तांड इति प्रयोगाः बहुत्र दृश्यन्ते तत्प्रामाण्यात् मार्तांड इति रूपमपि साधु लोके तु मार्तंडः इति प्रयोगः अपि अस्ति both these prayogas are seen with if it is a hasva we treat it as pararupa if it is a dirgha it is treated as savarna dirgha agrimam vartikam asti otvoshtayo samaseva iti उदाहरणानि कौमुद्यां दत्तानि स्थूला ओतुः स्थूलोतुः अथवा स्थूलौतुः ओतु ओष्ठ इत्येतयोः प्रयोः समासे विकल्पेन पररूपं भवति पररूपे स्थूलोतुः बिम्बोष्ठः इति रूपं तदभावे वृद्धौ स्थूलौतुः बिम्बौष्ठः इति ओत्वोष्ठयोरिति अकारस्य ओत्वोष्ठयोश्च एकत्र समासे स्थितौ सत्याम् इदं प्रवर्तते दिस् सूत्र विल् अप्लै ओन्ली वेन् द अकार दट् इस् अकारात् ओत्वोष्ठयोः परे पररूपं विधीयते अकारस्य ओत्वोष्ठयोश्च एकत्र समासे स्थितौ वेन् बोत् आफ् देम् आर् पार्ट् आफ् द सेम् समास एकस्मिन्नेव समासे पूर्वपदम् अकारान्तमस्ति उत्तरपदम् ओतु अथवा ओष्ठशब्दः तत्रैव इदं प्रवर्तते तेन इह न वृषलसुत ओष्ठव्रणस्ते वृषलसुत इति एकं समस्तं पदम् ओष्ठव्रणः इति अपरं समस्तपदम् देर् इस् नो समास बिट्वीन् सुत अण्ड् ओष्ठ हियर् वृषलसुत इति पृथक् पदम् ओष्ठव्रणः इति अपरं पदम् एकस्मिन् समासे यत्र अकारः ओष्ठ शब्दः अथवा ओतु शब्दः तत्रैव पररूपम् इति उक्तत्वात् अत्र वृद्धिरेव भवति न तु पररूपम् बिकास् द अकार बिलाङ्ग्स् टु अ डिफरेण्ट् समास एण्ड् द ओकार आफ् ओष्ठ बिलाङ्ग्स् टु अ डिफरेण्ट् समास अव्यक्तानुकरणस्य अत इतौ ध्वनेः अनुकरणस्य यः अच्छब्दः तस्मात् इतौ परे पररूपम् एकादेशः स्यात् इति सूत्रार्थः सिद्धान्तकौमुद्याम् उच्यते अव्यक्त अनुकरणस्य अतः अकार वेन् अत् सारी अत् वेन् इट् इस् एन् अनुकरण आफ् समथिङ्ग् से से पट् पट् इट् इस् अ कामन् अनुकरण विच् इस् आल्सो सीन् इन् अदर् लाङ्ग्वेजेस् वेन् से पिट् पाट् फार् रेन् ड्राप्स् वाटर् फालिङ्ग् एट्सेट्रा सो तादृशः ध्वनेः अनुकरणस्य यः अच्छब्दः तस्मात् इतौ परे इति शब्दे परे पररूपं भवति इति सूत्रार्थः पटत् इति पटिति इति उदाहरणं पटत् इति अनुकरणं तस्मात् इति इत्यस्मिन् परे अत् इत्यस्य इकारेण पररूपे पटिति इति रूपम् अव्यक्तशब्दं व्याचष्टे ध्वनेरिति अव्यक्तानुकरणस्य इत्युक्ते ध्वनेः अनुकरणस्य व्यक्त एंड अव्यक्त अव्यक्त इज जस्ट साउंड whereas व्यक्त इज समथिंग इट इज लाइक लैंग्वेज विच इज स्पोकन अतएव ध्वनेः अनुकरणस्य दिस इज द अनुकरण ऑफ जस्ट साउंड नॉट अ स्पीच साउंड जस्ट एन साउंड अनुकरणस्य इति परिस्फुट अकारादि वर्णस्य इति भावः सो इट इज नॉट वेयर लाइक से यू इमिटेट somebody स्पीकिंग सो तत् अव्यक्त अनुकरणं न तत् व्यक्तानुकरणमेव यत्र अव्यक्तानुकरणमस्ति तत्रैव पररूपं भवति तस्य च अनुकरणत्वं किञ्चित् साम्येन बोध्यम् सो इट् इस् स्लैट्लि सिमिलर् ऐ मीन् यु केनाट् एक्साक्ट्लि इमिटेट् अ सौण्ड् इफ् इट् इस् स्पोकन् यु केन् इमिटेट् वाट् इस् स्पोकन् बिकास् यु केन् क्लियर्लि मेक् औट् वाट् आर् द वर्ड्स् बीङ्ग् देर् बट् वेन् यु आर् इमिटेटिङ्ग् अ सौण्ड् इट् केनाट् बी द एक्साक्ट् थिङ्ग् So it is kinchit samyena. It resembles that the fall of raindrops resembles the sound of pit or pad or whatever it is told in the different languages. That is why it is different in different languages also. Right. So that is avyakta anukarana. Yattu prachoktam atah kim తకారాంతే మాభూదితి యచ్చవ్యాఖ్యాతం తకారాంత ఇది రూపాంతరూపలక్షణం వటక్ మరుత్ ఇత్యాదేరపీతి తన్నిస్సారం. సో ప్రాచాం అంటే ఇంద ప్రక్రియాకౌముది అవ్యక్తానుకరణస్య అతః ఇది ఉచ్యతే. కిమర్థం అతః? అతః ఇది వాక్యస్య కః ఆశయః ఇది ప్రశ్న. దకారాంతే మాభూత్. సో ఇఫ్ ఇట్ ఇస్ అత్ దట్ ఇస్ దకారాంత, ఓన్లీ దేర్ వి హావ్ పరరూప, నాట్ ఇఫ్ ఇట్ ఇస్ అ దకార అదు. సో ఎచ్చ వ్యాఖ్యాతం దకారాంత ఇది రూపాంతర ఉపలక్షణం. సో ఇన్ ద కమెంటరీ ఆర్ ద వ్యాఖ్యాన టు దట్ ఇట్ సేస్ దకారాంతే మాభూత్ మీన్స్ ఇట్ విల్ నాట్ అప్లై ఇఫ్ ఇట్ ఇస్ దకారాంత ఆర్ ఎనీ అదర్ థింగ్ లైక్ సే వటక్ ఇత్యత్ర కకారాంతత్వం, మరుత్ ఇత్యత్ర అత్ నాస్తి ఉత్ ఇత్యాదేరపి ఇది తన్నిస్సారం. ఇట్ సేస్ దట్ ఐ మీన్ దెర్ ఇస్ నో ఎసెన్స్ ఇన్ దట్, ఐ మీన్ దట్ నీడ్ నాట్ బి టోల్డ్. వై ప్రశ్నస్య దాంతః ఇది ఉత్తరస్య చ నిరాలంబనత్వాత్. ఇట్ సేస్ బోత్ ద క్వశ్చన్ అండ్ ద ఆన్సర్ ఆర్ బేస్లెస్. వై వెన్ పాణిని స్పెసిఫైజ్ అతః భవతి దెన్ ఇట్ ఇస్ ఆబ్వియస్ దట్ ఇట్ విల్ నాట్ అప్లై టు సంథింగ్ ఎల్స్. అకారస్య భవతి ఇత్యుక్తే ఇకారస్య న భవతి ఇది స్పష్టమేవ, తత్ న వక్తవ్యం కిల, కిమర్థం వక్తవ్యం? అతః అత్రాపి అతః భవతి ఇత్యుక్తే అన్యేషాం వటక్ ఇత్యత్ర కారాంతస్య వా మరుత్ ఇత్యత్ర ఉత్ ఇత్యస్య వా న భవతి ఇది జ్ఞాయత ఏవ. ప్రశ్నః అపి నావశ్యకః తదుత్తరమపి నిస్సారమేవ ఇది వీక్షితానాం మతం. యత్తు వ్యాచక్షుః and there is another commentary for that. Ato gune ityatah atah iti anuvartya shabdadhikaraashrayana siddham iti prashnah. Yada jashtavashad dantattvam tadapi syat punaha adgrahane tu shravutatantattvasya vivakshanat na iti uttaram iti tatchintyam. So one vyakhyana for that Kriya Kaumudi text just says atah kim dakarante mabhut. Why say ataha? So that it is not applying for dakara. A commentary to this says that dakara anta iti rupa antara upalakshanam. So that is the intention of the Granthakarta is to say it will not apply for other letters. That is vatak or marut. So that is baseless because obvious it is. Ataha ityukte anyesham navhavati iti nyayata eva ataha tan nissaram iti ekam. Anyasmin vyakhyane there is another commentary to the text which interprets it as ato gune ityatah ataha iti anuvartya shabdadhikara ashrayana siddham avyaktanukaranasya ataha itau ityuchyate. Purva sutram asti ato gune akaraanta gune paratah ityatah tasmat ataha iti anuvrutti shakyate. So we can take atu as anuvrutti from there. So why tell atu again here? అతో గుణే ఇత్యతః అతః ఇది అనువర్త్య శబ్దాధికారాశ్రయణాత్ సిద్ధం. నౌ ద అతః దేర్ మీన్స్ సంథింగ్ ఎల్స్, ఇట్ మీన్స్ హ్రస్వ అకారాత్ పరస్య. అత్ర తు అత్ ఇది శబ్దస్యైవ గ్రహణం. సో హి సే శబ్దాధికారాశ్రయణాత్. దేర్ ఆర్ టూ కైండ్స్ ఆఫ్ అనువృత్తి, వన్ ఇస్ కాల్డ్ అర్థాధికార అండ్ అదర్ ఇస్ కాల్డ్ శబ్దాధికార. అర్థాధికార ఇస్ వాట్ వి యూజువలీ సీ. సే ఇకో ఎణచి ఇత్యత్ర అచి ఇత్యస్తి, కః అర్థః అచి పరే ఇత్యర్థః. తత్ ఏచో యవాయావః ఇత్యత్ర అనువర్తతే, తత్రాపి అచి ఇత్యస్య కః అర్థః అచి పరే, అర్థాత్ స్వరే పరే ఇత్యేవ అర్థః. యత్ర అనువృత్తే అర్థః సమానః సః అర్థాధికారః. కింటు అత్ర కిం భవతి అతో గుణే ఇత్యతః యది అనువృత్తిం అంగీకుర్మః. అతో గుణే ఇత్యత్ర హ్రస్వాకారాంతాత్ ఇత్యస్తి అర్థః. అవ్యక్తానుకరణస్య అతః ఇత్యత్ర తు అత ఇత్యస్య అత్ ఇతి శబ్దస్య ఇత్యర్థః. హ్రస్వాకారః ఇత్యర్థః అత్ర నాస్తి. తర్హి కథం అనువృత్తిః ఇత్యుక్తే శబ్దాధికారాశ్రయణాత్. శబ్దాధికారః అపి క్వచిద్ అంగీక్రియతే, కేవలం అతః ఇతి శబ్దః అనువర్త్యతే తస్య అర్థః భిన్నః. అతః యత్తు వ్యాచక్షుః అతః కిం దకారాంతే మాభూత్ ఇతి పంక్తిం వ్యాచక్షతే అతో గుణే ఇత్యతః అతః ఇతి అనువర్త్య శబ్దాధికారాశ్రయణాత్. శబ్దాధికారః ఆశ్రియతే తేన తేనైవ సిద్ధ్యతి కిం అవ్యక్తానుకరణస్య ఇత్యత్ర అతః ఇతి సిద్ధ్యతి పునః అతః ఇతి కిమర్థం ఇతి ప్రశ్నః. యదా జష్ట్వవశాద్ దాంతత్వం तदापि स्यात्। यदि तादृशी अनुवृत्तिः अङ्गीक्रियते तर्हि यदा जष्ट्ववशात् दान्तत्वं पटत् इत्यस्ति तत्र यदि जष्ट्वं भवति तर्हि पटद् इति भवति। जष्ट्ववशात् दान्तत्वं तदापि स्यात्। सो देर् आल्सो द पररूप मैट् अप्लै। पुनः अद्ग्रहणे तु बट् बै स्पेसिफैङ्ग् अत् अगेन् इन् दिस् सूत्र श्रौततान्तत्वस्य विवक्षणात्। अस्मिन् सूत्रे तकारः श्रूयते, तकारान्तत्वेन श्रूयते अत इति, अतः न, यदा जष्ट्वेन तकारान्तत्वं भवति तदा पररूपं न भवति, तदर्थम् अत्ग्रहणम्। अतः किं तकारान्ते मा भूत् इत्यस्य अयमर्थः इति किञ्चन व्याख्यानमस्ति। सो दिस् इस् हौ दट् पङ्क्ति इस् टु बि इण्टर्प्रिटेड्। तत् चिन्त्यम् दट् आल्सो इस् टु बि थाट् वेदर् इट् इस् एक्चुलि करेक्ट्। वै जष्ट्वशास्त्रस्य असिद्धत्वेन पररूपस्य इव प्रवृत्तेः, जष्ट्व इस् असिद्ध टु पररूप। अव्यक्तानुकरणस्य अतः इति तु षष्ठाध्याये अस्ति, जष्ट्वं जलां जशोन्ते इति तु अष्टमाध्याये द्वितीयपादे अस्ति। अतः जष्ट्वस्य असिद्धत्वात् पररूपस्य इव प्रवृत्तिः। एव्रिवेर् इट् विल् बि पररूप, देर् केनाट् बि पररूप आफ्टर् जष्ट्व, दट् इस् पररूप विल् नेवर् सी द दकार brought in by jashtva, because jashtva itself is asiddha. Jashtva vashad yatra dantattvam sampadyate tat pararupena na drishyate eva, it is never seen by the pararupa, right? So that is one thing. Jashtva shastrasya asiddhatvena pararupasya eva pravrtte hai. Namreditasya iti nishedhe patat pataditi iti udaharanasya sambadhatva patteshcha. Also the next sutra says namreditasya आम्रेडितस्य न भवति द्वित्वं, सारी आम्रेडितस्य पररूपं न भवति। आम्रेडितं नाम द्वित्वस्य परं रूपं, द्विरुक्तस्य परं रूपम् आम्रेडितं। पटत् पटत् इति यदि द्विधा द्विवारम् उच्यते तत् आम्रेडितम्। आम्रेडितस्य पररूपं न भवति इति अग्रे उच्यते, तत्र पटत् पटदिति इति उदाहरणम्। पटत् इति इत्यत्र पररूपे सति पटिति इति भवति, किन्तु पटत् पटत् इति स्थिते पररूपं न भवति। जष्ट्वं कृत्वा पटत् पटदिति इति उदाहरणं दीयते, प्रत्युदाहरणं सेयिङ्ग् दट् द पररूप विल् नाट् अप्लै हियर्। नौ दिस् हेस् जष्ट्व, पटत् पटद् इति इत्यत्र जष्ट्वसहितं प्रत्युदाहरणं दीयते। तदुदाहरणस्य असम्बद्धात्वा पत्तेः, if you are saying where there is jashtva there is no pararupa, then because of that itself patat pataditi ityatra pararupam na bhavati, namreditasya iti sutram eva na apekshitam. So because of both these reasons that vyakhyana saying that ato gune ityatah shabdadhikarat anuvartate ityadi yaduchyate tadapi na samichinam. So atah kim iti prashnah eva nodbhavati iti dikshitanam matam. तत्र हि भवदुक्तरु इत्या, अर्थात् यत्ता जष्ट्ववशात् दान्तत्वं तत्र न भवति इति यदुच्यते तत्र हि भवदुक्तरीत्या प्राप्तिरेव नास्ति दान्तत्वात्, पररूपस्य प्राप्तिरेव नास्ति, तर्हि निषेधः कुतः, नाम्रेडितस्य इति निषेधः कुतः? असम्बद्धत्वात्, असम्बद्ध इस् इट् इस् द पटत् पटदिति is given as an example for namreditasya, that is there is nishedha by namreditasya, but that example is not related at all because there is already pararupa nishedha there because of the jashtva. Jashtvam asti ityatah eva pararupam nasti ityukte namreditasya iti sutrasya udaharanatvena yadiyate tad asambaddham, it is unrelated. I mean you are giving something totally unrelated to this because there is already pararupa nishedha by some other reason. Tatra hi bhavaduktaritya praptireva nasti atah dantatvat, dantatvat praptireva nasti atah nishedha api asambaddha syat. Atah etat mula panktihi vyakhyanam ubhayam api nissaram iti dikshitanam matam. अन्यः अपि अस्ति तत्र, एतेन अनुकार्य अनुकरणयोः अभेदविवक्षया विभक्त्यभावेन गवित्तयमाः इत्यादिवत् अपदत्वात् पटत्तित्यत्र दृष्ट्वं न इति ग्रन्थो अपि प्रत्युक्तः. इन् द सेम् केस् देर् इस् अ क्वश्चन् द प्रक्रियाकौमुदीकारः हिम्सेल्फ् आर् द व्याख्याकारः पटत् इति इत्यत्र जष्ट्वं कुतो न भवति. पटत् पटदिति इत्यत्र जष्ट्वमस्ति अतः पररूपं न भवति. पटत् इति इत्यत्र जष्ट्वं कुतो न भवति इति प्रश्नः. तत्र उच्यते एतेन अनुकार्य अनुकरणयोः अभेदविवक्षया विभक्त्यभावेन गवित्ययमाः इति वत् अपदत्वात्. देर् इस् अनुकार्य अण्ड् अनुकरण. अनुकार्य इस् दट् विच् इस् बीङ्ग् इमिटेटेड् अण्ड् अनुकरण इस् द इमिटेशन्. There are two views regarding this. Are is anukarya and anukarana both the same or are they different? Question. Anukarya anukarana yohu bhedaha iti ekah pakshaha, abhedaha iti aparah pakshaha. So now if we take them both as the same, abheda vivakshayam, vibhakti bhavena, there is no vibhakti on the anukarana. Okay. If we are taking it as the same, that is anukarya is completely, anukarana is completely, किं पश्यसि? इफ् अनुकरण इस् टेकन् द सेम् एस् अनुकार्य देन् देर् इस् नो सेपरेट् विभक्ति आन् द अनुकरण. ओके, वी ट्रीट् इट् एस् द सेम्, देर् फोर् देर् इस् नो सेपरेट् विभक्ति आन् इट्. इफ् इट् इस् डिफरेण्ट् देन् देर् वुड् हेव् बीन् विभक्ति. सो दट् इस् द टू थिङ्ग्स्. नौ देसे अनुकार्य अनुकरणयोः अभेद विवक्षया विभक्ति अभावेन, देर् इस् नो विभक्ति आन् द अनुकरण विच् इस् पटत्. इफ् देर् इस् नो विभक्ति देन् इट् इस् नाट् अ पद. इफ् इट् इस् नाट् अ पद देन् देर् इस् नो जस्ट्व, बिकास् जस्ट्व अप्लैज् ओन्ली इन् अ पदान्त. सो एतेन अनुकार्य अनुकरणयोः अभेद विभक्षया विभक्ति अभावेन गवित्ययमाः इतिवत् अपदत्वात्. सो दट् इस् आल्सो अनदर् एक्साम्पल्. गो इत्ययमाः, he says go. There the word go, actual prathama vibhakti ekavachana is gauhu. Gauhu ityayamaha iti nochyate, go iti ayamaha. So it is just simply imitating what was said. Okay, so it is a not a pada and therefore there is no vibhakti there. Similarly atrapi patat ityatra अनुकरणात् विभक्त्युत्पत्तिः नास्ति, अतः तत् पदं न. यदि पदं न तर्हि जस्त्वं न भवति इति. दट् इस् वन् आफ् द आर्ग्युमेण्ट्स्. ओके, बै द सेम् पर्सन् हू सेड् दट्. ओके, यत्र दान्तत्वं तत्र न भवति इति येन उक्तं तेन पटत् इति इत्यत्र जस्त्वं कुतो न भवति इति पृष्ट्वा अपदत्वात् जस्त्वं न भवति, अपदान्तत्वात् इति उक्तम्. एतेन अनुकार्य अनुकरणयोः अभेदविवक्षया विभक्त्यभावेन गवित्ययमाः इतिवत् अपदत्वात् पटत् इति इत्यत्र जष्ट्वं न इति ग्रन्थः अपि प्रत्युक्तः. दिस् इस् बै वाट् ऐ हेव् सेड् सो फार्, दट् पार्ट् आफ् द टेक्स्ट् हेज़् आल्सो बीन् आन्सर्ड् बै फस्ट् थिङ्ग् जस्ट्व इस् असिद्ध. सो एनिवे पररूप विल् ओवर्रूल् जस्ट्व. एण्ड् द सेकेण्ड् थिङ्ग्, पटत् पटदिति इत्यत्र जष्ट्वं प्रदर्श्यते. यत्र पररूपं नास्ति तत्र जष्ट्वं प्रदर्श्यते, अतः जष्ट्वं न भवति. पटत् पटत् इत्यपि अनुकरणं किल. पटत् पटत् इस् आल्सो एन् अनुकरण. तत्र जष्ट्वं कथम्? इफ् यु आर् सेयिङ्ग् पटत् इति इत्यत्र अपदान्तत्वात् जष्ट्वं न भवति, पटत् पटत् इति इत्यत्रापि जष्ट्वं न भवेत्, यतोहि तदपि अनुकरणमेव. बट् जष्ट्व ईस् शोन् देर् वेन् देर् इस् नो पररूप. यदा पररूपं निषिद्धं तदा जष्ट्वं भवति. अतः एषः ग्रन्थः अपि प्रत्युक्तः. दट् पार्ट् आफ् द टेक्स्ट् इस् आल्सो टोटली राङ्ग्. And he's just showing how arguments, which seem very correct, I mean it's very technical arguments, right? Anukarya anukaranayoha bhedaha vipakti hinasti padantatvam nasti. Okay, it's all a very fine argument, but it does not hold good. Why? Uttara grantha virodhat. Uttaratra patat patadithi iti jashtvam yat pradarshyate tena virodhat. Jashtvasya asiddhataya pararupena ivavadhatcha. And we have the most simple. अत्र जष्ट्वस्य प्रश्नः एव नास्ति. असिद्धत्वात् पररूपे पररूपमेव भवति. जष्ट्वस्य असिद्धतया पररूपेणैव बाधा च. सो दट् होल् आर्ग्युमेण्ट् इस् राङ्ग्. ननु तदपि नित्यं, तथा च कथं पररूप विरहेण प्रयोगः इति चेत् नौ दिस् सब्जेक्टानुकरणस्य अत इतौ इस् अ कम्पल्सरी कार्य दट् इस् द पररूप इस् कम्पल्सरी सो इफ् इट् इस् कम्पल्सरी इट् विल् आल्वेस् बि पठिति पठत् इति पठिति द कौमुदी सिद्धान्तकौमुदी गिव्स् द उदाहरण आस् पठत् इति पठिति Now, if the karya is nitya, you can always say only patiti. Patat iti iti vigrahya prayogaha katham krutaha iti prashna. Nanu tadapi nityam. Tadapi nama pararupam api nityam. Tathaka katham pararupa virahena prayogaha patat iti iti katham uchyate iti chet na. Alaukikam prakriyavakyam idam iti swayameva vyakhyatatva. The same udaharana is also given in the prakriya kaumudi where he says, Alaukikam prakriya vakyam. It is just to show the two words. It is not being used. It is not a laukika vigraha. It is a alaukika prakriya vakya. Just to show the prakriya that there was initially atu. Patat ityatra atu ityasti. Tasya itau pare pararupam jatam iti darshayitu prakriya vakyam. Alaukikam prakriya vakyam idam iti swayameva vyakshatasva. That is known. That is, it is not for prayoga, it is just to show the two words separately. Samhitayah avivakshayam tat sambhavaccha. And also, even otherwise, samhitayah avivakshayam. Samhitayam satyameva sandhihi nityaha. Only if there is samhita, then sandhi is compulsory. You can say there is no samhita. Right? Vakye samhita vivaksham apekshate. Since there are two separate words, samhita is optional. Sandhi might be compulsory, but samhita is optional. So, samhitayaha avivakshayam tat sambhavaccha iti dik. Okay, any questions in this sutra? Next is one of the most familiar sutras of Vyakarana, Akasavarane Dikha. अतः सवर्णे अचिपरे दीर्घः एकादेश स्यात् इति सूत्रार्थः कौमुद्यां दत्तः अचिपरे इति इको एणचि इत्यतः अचि इति अनुवर्तते इति उक्तम् किमर्थं वक्तव्यम् अकः सवर्णे परे दीर्घः एकादेशः इति वक्तुं शक्यते किल इति प्रश्नः वैसे अचि जस्ट् वेन् अक् इस् फालोड् बै सवर्ण अकार द सवर्ण इस् अकार और् आकार सो सवर्णे परे दीर्घः इति वक्तुं शक्यते सवर्णे अचि इति किमर्थम् इति प्रश्नः यदा तु ऊष्मणां सो द आन्सर् देर् इस् वट् इस् द आन्सर् देर् इस् दीक्षित डस् रेस् दिस् अचि किम् इति पृच्छ्यते कौमुद्यामेव अचि किम् किमुत्तरम् डस् एनिबडी रिमेम्बर् वट् इस् द आन्सर् हि गिव्स् किमर्थं सवर्णे अचिपरे इति उच्यते किमर्थं सवर्णे परे इति नोच्यते कोऽपि स्मरति वा रैट् कुमारी शेते समी एक्स्प्लेन् दट् यस् मुत्तुलक्ष्मी
कुमारी शेते सकार विल् हेव् स्थानीय भाव आफ् अकार आर् समथिङ्ग्
सावर्ण्य वित्
ईकार सावर्ण्य विल् हेव् सावर्ण्य आफ् ईकार
आर्ग्युमेण्ट् केन् सम्बडि एक्स्प्लेन् इट् ऐ मीन् सम्बडि रिमेम्बर् द होल् आर्ग्युमेण्ट् वाट् डिड् वि डू इन् अज्झलौ अज्झलोः परस्परं सावर्ण्यं नास्ति हि सेड् अच् एण्ड् हल् आर् नाट् सवर्णाज् आफ् ईच् अदर् So how is ikara and shakara savarna? So najjalau ityatra kim asti? Anudit savarna se ityase pravrastihi itopi nasti. We do not apply savarna grahana because we are still deciding savarna సవర్ణ సంజ్ఞ. తుల్యాస ప్రయత్నం సవర్ణం నాచ్చలో విత్తనేన సవర్ణ సంజ్ఞా నిశ్చీయతే తదనంతరమేవ అణుదు సవర్ణస్య చ ప్రత్యయః ఇత్యనేన సవర్ణానాం గ్రహణం. అతః నాచ్చలౌ ఇతి సూత్రార్థః యదా జ్ఞాయతే తదా సవర్ణ గ్రహణం నాస్తి. సో ద అచ్ అండ్ హల్ ఇన్ నాచ్చలౌ అప్లై ఓన్లీ టు ద మాహేశ్వర సూత్రస్థ వర్ణాస్. మాహేశ్వర సూత్రే ఏ అతః అ ఇ ఉ ఋ ల్ ఏ ఓ ఐ ఔ తత్ర ఏ హలః హయవర ఇత్యాదయః తేషాం పరస్పరం సావర్ణ్యం నిషిధ్యతే. తేన కిం భవతి దీర్ఘస్వరాణాం వ్యంజనైః. ద రూట్ ఆఫ్ దిస్ హోల్ థింగ్ ఇస్ వివృతం ఊష్మణాం స్వరాణాం చ. కిముక్తం తుల్యాస్య ప్రయత్నం సవర్ణం తాల్వాదిస్థానం ఆభ్యంతర ప్రయత్నశ్చ యస్య ఏన తుల్యం. ఆభ్యంతర ప్రయత్న చతుర్థ ఇత్యుక్త్వా ఈషద్ స్పృష్టం ప్రయత్నం స్పర్శానాం ఈషత్ స్పృష్టం అంతస్థానాం వివృతం ఊష్మణాం స్వరాణాం చ ఇత్యుక్తం. ఊష్మవర్ణానాం శ ష సహ ఇత్యేతేషాం స్వరాణాం చ వివృతః ప్రయత్నః. తేన కిం జాతం అకార హకారయోః ఇకార షకారయోః ఋకార షకారయోః పరస్పరం సావర్ణ్యం ప్రాప్తం తదా నాచ్చలౌ ఇత్యనేన నిషిధ్యతే. నిషేధస్తు మాహేశ్వర సూత్రస్థ అచాం హల్భిః నిషేధః సిధ్యతి. కింతు దీర్ఘాకారస్య హకారేణ సావర్ణ్యం అస్తి. దీర్ఘ ఈకారస్య షకారేణ సావర్ణ్యం అస్తి. ఏవం దీర్ఘ ఋకారస్య షకారేణ సావర్ణ్యం అస్తి. తస్య నివారణం నాచ్చలౌ ఇత్యనేన కర్తుం న శక్యతే. వి కెనాట్ ప్రివెంట్ ఇట్ బికాస్ ద అచ్ అండ్ హల్ ఇన్ నాచ్చలౌ అప్లై ఓన్లీ టు దోస్ అచ్ అండ్ హల్ విచ్ ఆర్ ఇన్ ద మాహేశ్వర సూత్ర. సో దర్ ఇస్ అ ప్రాబ్లమ్ నౌ. దేర్ ఆకార ద ప్రాబ్లమ్ విత్ రిగార్డ్ టు ఆకార వాజ్ రిజాల్వ్డ్ బై ఆకార ప్రశ్లేష న ఆ అచ్ ఇత్యత్ర ఆకారం ప్రశ్లిష్య దీర్ఘ ఆకారస్య హకారస్య చ సావర్ణ్యం నాస్తి తేన విశ్వపాభిః ఇత్యత్ర హోఢః ఇతి తత్వం న ఇత్యాది సిద్ధం. బట్ సావర్ణ్య స్టిల్ రిమైన్స్ ఇన్ కేస్ ఆఫ్ దీర్ఘ ఈకార అండ్ షకార. తత్ర సావర్ణ్యం ఇతోపి అస్తి. తస్య నివారణం న కృతం. సో ద భాష్యకార డిడ్ నాట్ గో టేక్ ఎనీ స్పెషల్ ఎఫర్ట్ టు ప్రివెంట్ దట్ సావర్ణ్య బికాస్ దెర్ ఇట్ వాజ్ నాట్ అఫెక్టింగ్ ప్రయోగ ఇన్ ఎనీవే. యది ఆకారస్య హకారస్య చ సావర్ణ్యం స్యాత్ తర్హి బహుత్ర క్లేశః అస్తి. బికాస్ హకారాంతానాం యదుక్తం తద్ ఆకారాంతానామపి భవతి ఇత్యాది ప్రయోగే క్లేశాః సంతి. అతః ప్రశ్లేషేణ తస్య నివారణం కృతం. ఈకారస్య షకారస్య చ సావర్ణ్యే సత్యపి దోషః నాస్తి ఇత్యతః న నివారితం. సో దట్ సావర్ణ్య వాజ్ నాట్ ప్రివెంటెడ్ విచ్ మీన్స్ దట్ దేర్ ఇస్ స్టిల్ సావర్ణ్య బిట్వీన్ దీర్ఘ ఈకార అండ్ షకార. నౌ అత్ర అకః సవర్ణే ఇతి ఉక్తే ఈకారస్య షకారే పరే సవర్ణ దీర్ఘః స్యాత్. తన్నివారణార్థం ఇకో ఎణసి ఇత్యతః అచి ఇత్యనువృత్య అకః సవర్ణే అచి పరే దీర్ఘః ఏకాదేశః స్యాత్ ఇత్యనేన నివార్యతే. సో దట్ ఇస్ ద ఎంటైర్ ఆర్గ్యుమెంట్ అచి పరే ఇతి అత ఏవ ఉక్తం. యది తు యదా తు ఊష్మణాం ఈషద్వివృతత్వం ఆశ్రిత్య నాచ్చలౌ ఇతి సూత్రం ప్రత్యాఖ్యాయతే. ఫైనలీ ది భాష్య సిద్ధాంత ఇస్ నాచ్చలౌ ఇట్సెల్ఫ్ ఇస్ నాట్ నీడెడ్. వై ఊష్మణాం భిన్న ప్రయత్న ఈషద్వివృతం ఊష్మణాం వివృతం స్వరాణాం. సో దేట్ హ్యావ్ టు సపరేట్ ప్రయత్న. వెన్ ద ప్రయత్న ఇట్సెల్ఫ్ ఇస్ డిఫరెంట్ సావర్ణ్యస్య ప్రాప్తిరేవ నాస్తి తన్నిషేధార్థం నాచ్చలౌ ఇతి సూత్రం అపి నాపేక్షితం ఇతి ప్రత్యాఖ్యాయతే. యదా తు ఊష్మణాం ఈషద్వివృతత్వం ఆశ్రిత్య నాచ్చలౌ ఇతి సూత్రం ప్రత్యాఖ్యాయతే తదా ఇహ అచి ఇతి న అనువర్తనీయం. తదా అకః సవర్ణే అచి పరే ఇతి వక్తుం ఇతి వచనం నాపేక్షతే అకః సవర్ణే పరే ఇత్యేవ వక్తుం శక్యతే. సో దట్ ఇస్ హిస్ ఫస్ట్ పాయింట్. సెకండ్ పాయింట్ అక సవర్ణే దీర్ఘ ఇత్యపి న వక్తవ్యం అకోకి దీర్ఘ ఇది సువచం. అక అకి దీర్ఘ ఇది వక్తుం శక్యతే యథాసంఖ్యం ఇత్యనేన అకారస్య అకారే పరే ఇకారస్య ఇకారే పరే దీర్ఘ ఇత్యాది సిద్ధ్యతి. సో ఇట్ ఇస్ లాఘవ. సో ఇట్ ఇస్ పాణిని కుడ్ యాజ్ వెల్ హావ్ సెడ్ అకోకి దీర్ఘ ఇన్స్టెడ్ ఆఫ్ క్రియేటింగ్ ఎ కాంప్లికేషన్ విత్ అక సవర్ణే దీర్ఘ. అత్ర సవర్ణ సంజ్ఞాయాః ఉపయోగః నాస్తి. అకః అకి దీర్ఘ ఇత్యేవ ఉక్తే సర్వం సిద్ధ్యతి ఇతి దీక్షితానాం మతం. సో నెక్స్ట్ దేర్ ఇస్ అ వార్తిక ఇన్ దిస్. రుతి సవర్ణే రువ లుతి సవర్ణే లువ. a very weird prayoga. He says ruti savarne when followed by a savarna rakara. Say hotru rakara. Akasavarne dirghayatena savarna dirghe hotru karaha iti bhavati. Evam hotru lkaraha iti se hotru tatrapi hotru karaha. Lkarasya dirgha bhava dirgha rukaraha eva bhavati. Hotru karaha iti rupam. Tat siddhyati. Kintu atra vartika dvayam asti ruti savarne ruva. Evam luti savarne luva. Iti vartika dvayam. Hotru karaha. It is repha with a rukara. Okay. You say rara, riri, ruru, r. That is repha with joining with the swara rukara. Okay. So that is one form. Ruti savarne r va vikalpena. Tadabhave savarna dirghe hotru karaha. Iti bhavati. Evam luti savarne l. Ityatra lakarasya lukara swaraha. Lala, lili, lulu, rr, l. That is lakara vyanjana along with the lukara swara. Okay, that is the varana which is given as the adesha. Hotlukaraha, tadabhave hotlukaraha. Iti bhavati. Tatra kimuchyate punaha kaumudyam, ritiruva iti ubhayatrapi, vidheyam varanadvayam dvimatram. He says this is as two matras. Varanadvayam dvimatram iti. Tatra punaha uchyate, Adhyasya madhye dvau rephau tayor eka matra. It is, there are two rephas here, which is one matra. And abhitaha ajbhakte hai apara. There is also a swara rukara, which has one matra. So, hotru karaha ityatrapi dvimatra eva. Dirgha rukaraha dvimatra. Atrapi ruva ityatra. Repha dvayam asti tasya eka matra. Rukaraha asti tasya eka matra. Ataha dvimatraha varanaha eva. Vidhiyate. Evam hotlukaraha ityatra. Lakarasya eka matra. Lukarasya eka matra. Varanadvayam dvimatram. Ityadi. Bhashyapi. It has been discussed a lot. They call it as a Narasimha Varna. That is half of this and half of that. It is both a swara and a vyanjana. It has parts of both swara and vyanjana. Okay. It's a very special varana. Yattu pracha vyakshatam. Dirghe prapte hrasvaharukaraha lukarasya vidhiyate iti tad bhashyakayatadi virodha rupekshyam. The Pakriya Kaumudi says, instead of dirgha, there is hrasva. That is, instead of hotrukaraha, there is hotrukaraha. Yes, hrasvarukara or hrasvalukara. So that is totally wrong. Yattu pracha vyakshatam dirghe prapte hrasvaharukaraha lukarasya vidhiyate iti tad bhashyakayatadi virodha rupekshyam. This is totally against Bhashya, Kayata and everything. The Bhashikara very clearly discusses about this varana. So that is to be ignored. Enga padanta dati. Iti Agrimam Sutram. Padanta dengaha ati pare purva rupam ekadeshaha bhavati ityarthaha. Nathinga soshcha iti ityasya arambhat asya padanta vishayatve labdhe uttarartham padantaditi spashtartham ihaiva krutam. Engaha padantadati ityasti padantaditi vaktavyam va iti prashnaha. Apadante na bhavet ityatadartham vaktavyam iti cheta. Agrimam sutram asti nasinga soshcha. Nasinga soho atipare purvarupam bhavati. Hare as iti cheta hare as hare he iti bhavati. Evam guru as iti cheta guros guroho. Now, if this sutra, enga padanta dati, is not for padanta, yadi apadante vi pravartate, tada ngasi gasoha ati pare vi bhavatyeva. So, even when followed by the akara of ngasi or ngas, there will be pararupa by enga padanta dati itself. So, the sutra, ngasi gasoshcha ityasya arambhat, by beginning the sutra itself, Panini indicates that this sutra, enga padanta dati, is only for padanta. Nasinga soshcha ityasya arambhat asya padanta vishayatve labdhe. By that it is obvious that the earlier sutra is only for padanta. Uttarartham padanta diti. Which means in this sutra we don't require padantat. Engaha ati ityeva ukte alam. Agrimam sutram arabhyate ityanenaiva idam padante eva iti jnayate. Tathasati uttarartham padanta diti. Uttaratra anuvartate. So in sutras after that it is taken as anuvritti. Spashtartham iha iva sutram. So it is not really required here. It is just for clarity. Even without padanta we could have derived the same meaning, but it is here for clarity. Spashtartham ihaiva kritam. So in the final part of the Achchani Prakarana, we have the Prakati Bhava for Gohu, Sarvatra Vibhasha Gohu. Loke Vedecha, Engantasya Gohu, Ati, Va Prakati Bhava Hasyan Padante. When the word Go is followed by Ati, Hrasva Akara, there is an optional Prakriti Bhava. Okay. So Go Agram, Iti Bhavati. Go, Engantasya Gohu, Ati Pare, Prakriti Bhavaha. So when there is Prakriti Bhava, it is Go Agram. Tadabhave, Enga Padanta Adati, Ityanena Purva Rupe. Go Gram, Ityapi Bhavati, Rupa Dvayam. So Atra, Loke Vedecha, Ityuchate. Vede Ityapha Katham Labhyate. Yadyapi Chandasi Itina Prakritam. So there is no Anuvritti of Chandasi anywhere. Tathapi, Yajishuraha Ityadi Prakramat, Chandasyeva Idam Iti Sambhavyeta, Ataha Sarvatra iti uktam. So before that, the sutras before the starting from 61117, the sutras all apply only to Yajushi, only in the Yajurveda. So as a continuation, if Panini just said Vibhasha Goho, we could have assumed that this also applies only in Yajush, that is only in the Veda. So to prevent that thinking, he says Sarvatra. Sarvatra ityukte Loke Vedecha. Vedepi Bhavati, Lokepi Bhavati ityarthaha. Yadyapi chandasi iti na prakratam, tathapi yajushuraha ityadi prakramat, chandasyeva idam iti sambhavyeta, ataha sarvatra iti uktam, tadvyachashte loke vedecha iti, sarvatra namakim, bhashayamapi vedecha. Iha engaha ityanuvatya, engantasya goho iti vyakheyam. So here, engah padantarati ityataha, engaha iti anuvartate, tena engantasya goho ityuchyate. When go ends in eng. Go always ends in okara. Engantasya goho iti kimartham iti chet, tena ihana chitragvagram. Chitraha gavaha yasya iti sthite. Chitra gu. Gostriya rupasarjana se tena okara se hraswe chitra gu. Iti bhavati. Tasmat akare pare chitra gu agram. I am go shabdaha, kintu engantaha na. It is not enganta and therefore the prakriti bhava will not apply here. It is chitragu, chitragu agram, yanadeshe kute chitragu agram. Pratipadoktasya engaha grahanat naiha he chitragu agram. Now the word chitragu, chitraguhu, chitragu, chitragavaha, guru guru guravaha, sambodhane kim bhavati. Guru iti vata chitrago iti bhavati. Right. Now, will that get prakriti bhava? Chitrago iti yatra bhavati va iti cheta. Pratipadoktasya engaha grahanat. Yatra go shabdaha engantaha. Tatra eva bhavati. Atra tu go shabdaha ukaranta eva. Chitragu iti yatra. Chitragu shabdaha okarantaha. The okara is not of go. It is of the chitragu iti yasya okara. Ataha he chitrago gram ityadi ityatrapi prakriti bhavaha na bhavati. Yatra go shabdaha yengantaha tatraiva prakriti bhavaha bhavati. Chitragu ityasya sambodhana prathamaika vachane he chitrago iti tatra na bhavati prakriti bhavaha. Prakriti bhavaha iti prakrityantah padam iti sutrat prakritya iti anuvrutteh. So, Sutram 115 is Prakritya Antahpadam. So, Prakritya ityanu vartate, tena Prakritya bhavati. Artha Prakriti bhavaha. Sandhihi na bhavati ityarthaha. Yadyapi bhashye iko gunavriddhi iti sutre, nantahpadam iti pathahasthitaha. Shashtabhashye api evam. Tathapi shakala sutre, rasvascha iti takarena prakritya ityanu krishyate iti bhashya darshanan. Prakritya antahpadam iti pathopi sadhureva. Now this sutra, Prakrityantahpadam, has been modified in the Bhashya as Nantahpadam, Na Antahpadam. So, till the end of the Pada, Na, Na Bhavati, Artha Sandhi Na Bhavati, Purvam Yaduktam, Tat Na Bhavati Ityeva Svikrataha, Prakritya Iti Na Svikrataha. It stays as it is Iti Na Uchyate, Na Bhavati, Sandhi Na Bhavati Ityeva Uchyate. यद्यपि भाष्ये इको गुणवृद्धि इति सूत्रे नान्तःपादम् इति पाठः स्थितः. षष्ठभाष्ये अपि एवम्. इवन् इन् द सिक्स्थ् चाप्टर् भाष्यकार एक्सेप्ट्स् द सूत्र एस् न अन्तःपादम् अण्ड् नाट् प्रकृत्या अन्तःपादम्. देर् इस् अ डिफरेन्स् इन् दट् सेयिङ्ग् सन्धि विल् नाट् हेपन् आर् सेयिङ्ग् देर् इस् प्रकृति भाव. देर् इस् अ डिफरेन्स् विच् विल् प्रोबब्लि सी वेन् वी सी दट् सूत्र समटैम्. बट् द भाष्यकार एक्सेप्ट्स् नान्तःपादम् अण्ड् नाट् प्रकृत्यान्तःपादम्. तर्हि अत्र प्रकृत्या इति कथमनुवर्तते इति प्रश्नः. तथापि शाकलसूत्रे इको सवर्णे शाकल्यस्य ह्रस्वश्च इत्यत्र ह्रस्वश्च इति चकारेण प्रकृत्या इति अनुकृष्यते इति भाष्यदर्शनात्. तत्र भाष्ये उच्यते प्रकृत्या इत्यनुकर्षः. प्रकृत्यान्तःपादम् इति पाठोऽपि साधुरेव. सो विच् शोस् दट् ईवन् दट् पाठ हेस् बीन् एक्सेप्टेड् बै द भाष्यकार. न इति पाठे तु नौ हि शोस् वाट् इस् द डिफरेन्स् इन् सेयिङ्ग् न एण्ड् सेयिङ्ग् प्रकृत्या. न इति पाठे तु सर्वत्र इति सूत्रेण पूर्वरूपमेव विकल्प्येत. नौ इफ् यु आर् सेयिङ्ग् न आर् प्रकृत्या इति नास्ति, न इत्येव यदि अस्ति सूत्रे, तर्हि विभाषागोः इत्यनेन किं भवति? वो शब्दस्य पूर्वरूपं विकल्पेन भवति इत्युच्यते. पूर्वरूपस्य अभावे किं भवति? अवङ्स्फोटायनस्य इत्यनेन अवङादेशः भवति. सो विल् हेव् ओन्ली टू फार्म्स्, वन् वित् पूर्वरूप एण्ड् वन् वित् अवङादेश. द फार्म् वित् प्रकृतिभाव केन् नाट् बी ओब्टेन्ड् इफ् वी डोण्ट् हेव् द वर्ड् प्रकृत्या. अत एव प्रकृत्या इत्यनुवृत्तिः अनुवृत्तिमेव स्वीकरोति दीक्षितः, न तु न इत्यस्य अनुवृत्तिम्. सो द रिलेटेड् सूत्र इस् अवङ् स्फोटायनस्य एङन्तस्य गोः अवङ् इति आदेशः भवति. सी द एक्साम्पल् वि हेड् द सेम् गो अग्रम्. प्रकृतिभावे सति गो अग्रम् इति रूपम्, पूर्वरूपे गोग्रम् इति रूपम्, अवङादेशे कृते गव अग्रम् गवाग्रम् इति रूपत्रयम् अत्र सिद्ध्यति. वन् बै प्रकृतिभाव, वन् बै दिस् अवङ् स्फोटायनस्य एण्ड् वन् बै पूर्वरूप. प्रकृतिभाव इस् आल्सो आप्शनल्, अवङादेश इस् आल्सो आप्शनल्. When both of these don't happen, there is Purvarupa. So there are three forms which result. Atraapi, Engantasya Goho iti Vyakhyayam. So Engantasya Goho Avangadeshah Bhavati. Ak iti Sutraitum Uchitam. Avang iti Navaktavyam, Ak iti Vaktum Shakyate. It just says Ak as the Agama. Instead of Avang being made as an Adesha, अवङ् इस् नित्, सो इट् विल् बि अन्तादेश. ओकारस्य स्थाने अव इति आदेशः गवाग्रम् इति सिद्ध्यति. इन्स्टेड् आफ् दट् अक् इति सूत्रयितुम् उचितम्. यु केन् जस्ट् एड् एन् अक् एस् द आगम, अकार एस् द आगम. कित्वात् अन्तावयवः गो अ इति भवति. एचयवायावः इत्यनेन अवादेशे गव अग्रम् गवाग्रम् इति रूपं सिद्ध्यति. इट् वुड् हेव् बिन् शार्टर् टु से अक्. अक् इति सूत्रयितुम् उचितम्. अक् स्फोटायनस्य इति वक्तुं शक्यते. विभाषानुवृत्तेः स्फोटायनग्रहणं पूजार्थम्. सो सर्वत्र विभाषागोः इत्यतः विभाषा इति अनुवर्तते. स्फोटायन इस् द नेम् आफ् अ ग्रमेरियन् अर्लियर् टु पाणिनि. तद्ग्रहणं पूजार्थम्, जस्ट् टु शो रेस्पेक्ट् टु हिस् व्यूस्, पाणिनि हेस् यूस्ड् स्फोटायनस्य द नेम् आफ् स्फोटायन. कः अर्थः सूत्रस्य? अचिपरे पदान्ते गोः अवङ् वा स्यात्. सो वेन् फालोड् बै अच् एट् द एण्ड् आफ् अ पद, गो हेस् अवङ् एस् द आदेश, गवाग्रम् इति रूपम्. पदान्ते किं? गवि, गो इ. सो पदान्ते एव भवति, गवि इत्यत्र न भवति. सो गवि इति यत्तु प्राचा गवे इति प्रत्युदाहृतं तन्न. गो इ सप्तमी एकवचने गवि इति दीक्षितैः दत्तम्. प्राचा किं दत्तम्? गो ए गवे इति प्रत्युदाहृतम्, चतुर्थ्येकवचनं. तत् न. किमर्थम्? सत्यपि अवङ्गि. Even if you do avangadesha here, gava e iti sthite, ato gune iti pararupena rupa siddhe hai. And then you do pararupa, gava e. Apadanta adakarat gune parataha, pararupa metadesha hasyaditine na pararupa ekrate gave iti siddhati. So even if you do avangadesha, you can get gave. So gave is not the correct pratyudaharana. Whereas in case of gavi, if we do avangadesha, gava e iti, गवि इति न सिद्ध्यति, गवे इति भवति. सो देर् विल् बी अ राङ्ग् फार्म्. So always a pratyudaharana has to be chosen carefully. So what will happen if this karya applies there? So in the way, even if the karya applies, nothing will happen. The form will not change. So we cannot appreciate the difference. Gavi ityatra tu avangadeshe krate gavi iti na siddhyati. Yattu prata gave iti pratyudaharatam tanna satyapi avangi atogune iti pararupena rupa siddhyehe. Nacha satyavangi nyehe yadeshah syat striyam tu tap syat iti vachyam. Now, if there is angadesha, gava a, like we have in Rama a, becoming Ramaya, near yaha ityanena yadeshah bhavati. Striyam tu tap syat, in strilinga akarantatvatu tap bhavati iti na vachyam. Timartham, sannipata paribhashaya yadesha tapoho susamadhanatvat. Sannipata lakshano vidhihi animittam tadvighatasya. So the sannipata is a paribhasha which is commonly seen. Any karya which depends on another factor will not destroy that factor. For example, the avangadesha here, go agra. It depends on the following ach. Right? Go a. Ityatra avangadesha ha. Acham nimitti krutya pravuttaha. So if nye is replaced by ya, that ach itself is gone. So the reason for the avangadesha itself will be lost. So sannipata lakshano vidhi animittam tadvighatasya ityanena yadeshopi na bhavati tapapi na bhavati gaveti rupam siddhyati avangadeshe krute api ataha gave iti pratyudaharanam na datavyam gavi ityeva vaktavyam natasa anitya iti vachyam sannipata paribhasha anitya iti tavata api utsargika tatpravrtya ishta siddhehe. Even though it is anitya, it will still operate where we require it. Nipata paribhasha does not operate in some places. But generally, utsargika tatpravrtya, generally it does operate. And by operating it, we can overrule the objection. So, that rupa or that pratyudaharana is wrong. Vivasthita vibhashaya gavakshaha. Now, this sarvatra vibhasha goho is treated as a vyavasthita vibhasha. That is, it is not just an option. It will operate in some places, it will not operate in some places. So, there is a form like gavaksha. Gavaksha means a window. So, there, go aksha, there is no prakriti bhava. Okay, it is always avangadesha. The avangadesha, prakriti bhava are all treated as vyavasthita vibhasha. That is, in some cases, they will compulsorily operate. In some cases, they will not operate. And somewhere, they might be optional. Go agram, gavagram ityatra, vikalpena bhavati. Gavakshaha ityatra tu, avangadeshaha eva bhavati, purva rupam api nasti, prakriti bhavo api nasti. Because there is no, there is no prayoga. Prayogastu gavakshaha ityeva asti. Gavam akshi iva iti vigraha. Why is it called Gavaksha? Gavam Akshiva. It is like the eye of a cow. Probably in those days, windows were shaped in the form of an eye to see out, right? To see what is out. Gavam Akshiva iti vigraha. Akshno darshana aditi ach samasantaha. Akshi ityasti tatrante akaraha samasantaha bhavati Gavaksha iti. Vatayane rudhaha yam. So this shabda is not used for the eye of a cow. It is conventionally used for vatayana, a window. Pumstvam lokat. And the pullinga, gavak, akshi shabdaha na pumsakalingaha. Into gavaksha shabdaha, pullinge lokat. By prayoga, it is just pullinga. The last sutra of the Atsandhi Prakarana. I'm sorry, I have overshot the time, but since we started late today, I just want to finish the prakarana. The last sutra of this is Indre cha. Goho avangsyad Indre. When the word go is followed by Indra, there is avangadesha. So, gava Indra, gavendraha. Arambha samarthyan nityamidam. So, this is compulsory. Arambha samarthyan. Because otherwise, avangsphotayanasya ityanenaiva vikalpena siddhyati. Punaha Indre iti navaktavyam. Uktatvata nityam. Arambha samarthyan nityamidam. Indrecha nityam iti pachastu bhashya sangatatvad upekshitaha. So there is a variant reading which says Indrecha nityam not required. He says it is against the Bhashya, it is not found in the Bhashya, and it is not required because just by the Sutra itself we know that it is compulsory. Okay. So that is the end of Achandhi Prakarana of the Kaumudi. So the next is a subpart of Achandhi, which is Prakriti Bhava, which is still treated as a separate Prakarana. Yeah, the Panchasandhi. Achandhi, Prakriti Bhava, Hal, Visarga and Swadhi. Swadhi. Right? So Prakriti Bhava. Tatra Plita Pragrahya Atinityam iti Prathamam Sutram. Ehi Krishna Atra Gauscharati iti Udaharanam Diyate. Duradhutecha iti Plutaha. Ehi Krishna Atra ityatra Plutaha. Duradhutecha iti Plutaha. Plutasya Achipare Nityam Prakriti Bhava. Ityanena Prakriti Bhava. So we will see this probably not in the next class. In the next class, I would like to do a quick revision of the entire Achandhi Prakarana and see if there are any questions. So any questions now? In the next class, if you have the time, just go through the Achandhi Prakarana once. We will be doing a revision of the Achandhi Prakarana. If you have any questions anywhere or would like me to repeat any explanation, you can always ask. And to remind you, one more week left for the assignment on Etyedha Tyutsu. Just two or three pages on the arguments in Etyedha Tyutsu and the Siddhanta. Already received one assignment. The rest, please send it as soon as possible. Any questions? Okay, we'll stop here. Dhyayam dhyayam param brahma smaram smaram gurur giraha siddhanta kaumudi vyakhyam kurmah praudha manoramam.